गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्रृण्वन् नोतिभिः सेधसादनम् प्रणो देवी सरस्वती वाजे भर्वाजिनीपते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः या तैषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्याया तवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिशं गिरिशन्तहस्ते विपश्यस्तवे शिवाङ्गिरित्रतां कुरु माहि गुंसि पुरुषं जगत् शिवे नवचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत् अध्यवोचदति वक्ता प्रथमो दैव्योऽभिषक् अयेकश्च सर्वाञ्जम्भयन् सर्वाश्च यदुधान्यः असौर्यस्ताम्रो अरुण उत वक्रस्व मङ्गलः ये चेमागुं रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुं हेड इमहे असव्यो वसत्पतिनीलग्रेवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहाद्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मयोच्याम् याश्च देहस्त इषवः पराता भगवो बपा अवतत्यधनुस्त्वगुं सहस्राक्षसतेषु धे निशीर्य शल्यानाम् मुखा शिवो नः सुमना भव वीर्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् हुता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मय परिभुज नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषेमते पथीनां पतये नमो नमो बम्लुषाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगताम् पतये नमो नमो रुद्राय तथा विनेक्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वायवस्कृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नवेताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिना व्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणेस्तेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो श्रीमद्भ्यो नत्वञ्चरद्भ्यः प्रकृन्तानाम् पतये नमो नमः उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नमाभ्यादिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः క్షుల్లకేభ్యశ్చ వో నమో నమో రథేభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమః సేనాభ్యశ్చ వో నమో నమః క్షత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులారేభ్య కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వరిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కవర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మీనుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వైశేయసే చ నమో వృద్ధాయ చ సమృద్ధ్వనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవేజాజిరాయ చ నమః శీఘ్రయాయ చ శేభ్యాయ చ నమః ఊర్మ్యాయ చావస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపకల్పాయ చ నమో జగన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కల్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శౌరాయ చావభిందతే చ నమో వర్మిణే చ వరూధినే చ నమో బిల్మిణే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో జష్ణవే చ ప్రమృషాయ చ నమో ద్యూతాయ చ ప్రహితాయ చ నమో నిషంగిణి చేశ్వధిమతే చ నమస్తీక్ష్ణేశవే చ యుధినే చ నమస్వాయుధాయ చ సుధన్వనే చ నమస్తత్యాయ చ పథ్యాయ చ నమః కార్త్యాయ చ నీప్యాయ చ నమః శోధ్యాయ చ సరస్యాయ చ నమో నాధ్యాయ చ వైషంతాయ చ నమః రూప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః నేత్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంఖాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వదాయ చ దూరే వదాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమః शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेऽर्थ्याय च कौल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः षष्ट्याय च वेन्याय च नमः चैकत्याय च प्रवाक्याय च नमः हिरण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कवर्दिने च पुलस्तरे च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः कार्त्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्काय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्भ्याय च सूर्म्याय च नमः पर्णाय च पर्णशत्याय च नमोपगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किलिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्के ्यभे अंधसस्वते दरिद्रन्नीलोहिता येषां पुरुषाणां येषां पशूनां मावेर्मारोमो येषां किञ्चनाभवत् याते रुद्र शिवा तनो शिव विश्वाह वेशजे शिवा रुद्रस्य वेशजेतयानो मृडजीवसे हिमागं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुत मानो अर्भकं मान उक्षन्तमुत मान उक्षितम् मानो वदे पितरं मोत मातरं प्रियामानस्तनुवो रुद्ररीरिषः मानस्तो केतनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदे हविष्मन्तो नमसा विधेमते आरात्रे गोघ्नहुत पूरुषग्ने हयद्वीराय सुम्नमस्मेति अस्तु रक्षा च नो अधि च देव ब्रूह्यता च नः शर्म यच्छद्विवर्हाः सुहि श्रुतं गर्त स दैयवानं मृगन्न भीममुपहत्नमुग्रम् ऋणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः अवस्थिरा मगवद्यस्तनुष्वमेनस्तोकायतनयाय मृळया नीडुष्टम शिवतम शिवो न सुमना भव परमे वृक्ष आयुधन् निदाय कृत्तिं वसा न आचर पिनाकं बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्भेतयोन्यमस्मन्निवपन्तुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्रादिभूम्याम् तेषाम् सहस्रयोजने वदन्वानि तन्वसे अस्मिन् महत्यर्णवेऽन्तरिक्षे भवादे नीलग्रीवाशितिकण्ठा सर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखास कवर्धिनः ये अन्येषु विविध्यन्ति पात्रेषु विवतो जनान् ये पथाम् पथिरक्षय ऐलभृदायभ्युदः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ये एतावन्तश्च भूयागुंसश्च दिशो रुद्राभितस्थिरे तेषागुंसहस्रयो जने वदन्तानि तन्वसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवेशामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतेचेर्दशो देचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयम् तु तेयम् धृष्मो यश्च नो द्वेष्टितम् भोजम् वेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् दुर्वारुकमिव बन्धना नृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमोऽस्तु येते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वा न वयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यस्विशुसुधन्वायु विश्वस्य क्षयति मे सदस्य यक्ष्वा महे सौमनसाय रुद्रन्नमो देवमसुरम् ध्रुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्ववेशयो यम् शिवाभिमर्शनः ॐ शान्ति 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 ॐ शञ्च मे मयश्च मे प्रियञ्च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे घृतिश्च मे विश्वम् च मे महश्च मे सम् विच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे चिरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे श्रोषा च मे सुदिनं च मे ॐ शान्ति 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 ॐ अत्रिनात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेनागुं राजा अप्येषा गुस्तपतिर्हतः अथो माता अथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशादिका हताः श्वेता विश्वा सर्वे हताः आहरावद्या श्रुतस्य विशो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आददामि तथा हि तत् खन्फण्मसे ॐ शान्ति 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 ॐ शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पते शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मा भवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति 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 शिक्षां व्याख्यास्याम वर्णस्वरः मात्राबलम् साम सन्तानः इत्युक्तश्रेक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अथ तत्सगुंहिताय उपनिषदम् व्याख्यास्याम पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् तामहासगुंहिता इत्याचक्षते अथाधिलोकम् पृथिवीपूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अथादिज्योतिषम् अग्निपूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्ते वासुत्तररूपम् विद्या सन्धिः प्रवचनगुम् सन्धानम् इत्यधिविद्यम् अथाधिप्रदम् माता पूर्वरूपम् पितोत्तररूपम् प्रजा सन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् असाध्यात्मम् अतराहणुपूर्वरूपम् उत्तराहणुरुत्तररूपम् वाक्सन्धे जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुम्भिताः य एवमेता महासगुम्भिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवच्चसेनान्नाद्येन सुवर्गेण लोकेन ह्यच्छन्दसा मृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता सम्भवूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मण क्वशोचि मेधया पेदः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणा चैरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वणा ततो मे श्रियमावह व्योमशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सानि स्वाहा श्रेयान्वस्य सोऽसानि स्वाहा त्वन्त्वा भगप्रविशानि स्वाहा समा भगप्रविश स्वाहा तस्मिन् सहस्रशाखे निमगाहम् मयि मृजे स्वाहा यथा पप्रवतायन्ते यथा मासा अहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व भूर्भुवः सुवरिति वा एता तिस्रो व्याहृतयः तासामुहस्मैता चतुर्थे माचमस्य प्रवेदयते महिते तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायो सुवरित्यादित्यः मह इति चन्द्रमा चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा ऋषः भुव इति सामाने सुवरिति यजोगुंषि म इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः म इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावा चतस्रश्चतस्रो व्याहृतयः तायो वेद स वेद ब्रह्मा सर्वेऽस्मै देवा बलिमा वहन्ति स य एषोऽन्तःहृदयाकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरे न तारुके य एष स्तन इवाबलम् वदे सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपोहशीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुभरित्यादित्ये मह इति ब्रह्मणे आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतेः श्रोत्रपतिर्विज्ञानपतेः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मम् प्राणारामम् मन आनन्दम् शान्तिसमृद्धिसमृतम् इति प्राचीनयोग्योपास्वा पृथिव्यन्तरिक्षम् द्योद्दिशोर्वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमानच्छत्राणि आपोषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्त्वक् चर्ममागुञ्जग्निस्तावास्ति मज्जा एतदधिविदाय ऋषिरवोचत पान्तम् वायुम् सर्वम् पान्ते नैव पान्तग्स्पृणोतेते ओमिति ब्रह्मा ओमिदिदगुम् सर्वम् ओमित्येतदनुकृतिहस्तवा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुम् सोमिति शस्त्राणि शगुम् सन्ति ओमित्यध्वर्युम् प्रतिगरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसोदे ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नाः ब्रह्मोपाप्नवानेति ब्रह्मैवोपाप्नोति हृदम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपस्य स्वाध्याय प्रवचने च दमस्य स्वाध्याय प्रवचने च श्रमस्य स्वाध्याय प्रवचने च अग्नयस्य स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयस्य स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च व्रजनस्य स्वाध्याय प्रवचने च स्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपो नित्यपौरुषिष्टिः स्वाध्याय प्रवचने एवेति नाको मौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिपृष्ठं गिरेरिव ऊर्ध्वपवित्रो वाजिनेव स्मृतमस्मे द्रविणकुं सवर्चसं सुमेधाहरुदोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोचाचार्यो अन्ते वासिनमनुशास्ते सत्यं वर धर्मं चर स्वाध्याय आत्मा प्रमद आचार्याय प्रियं धनमाहृत्यं प्रजातन्त्वं मा व्यवच्छेच्छेः सत्यान प्रमदितव्यम् धर्मान प्रमदितव्यम् कुशलान प्रमदितव्यम् भूत्येन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि एके चास्मच्छेया पुंसो ब्राह्मणाः तेषाम् त्वया सरेण प्रस्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रेया देयम् श्रेया देयम् भेया देयम् संविदा देयम् अदयदिरे कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् एतत्र ब्राह्मणा सम्भर्षिणा युक्ता युक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेताः अदाभ्याख्यातेषु एतत्र ब्राह्मणाः सम्भर्षिणा युक्ताः युक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेताः एषा देशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रशं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पते शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मादि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतववादिशम् सत्यववादिशम् तन्मावेत् तद्वक्तारमावेत् आवेमाम् आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः शरणमहम् प्रपद्ये गृणाहि नृतवते सवितराधिपत्ये पयस्वधीरन्धिराशानो अस्तु ध्रुवादिशाम् विष्णुपत्न्यघोरास्येषा नाशहसो यामनोता बृहस्पतिर्मादरिश्रोतवायुः सन्धुवाना वाता अभिनो गृणन्तो निष्टम्बो दिवो धरुण पृथिव्या अस्येषा न जगतो विष्णुपत्नी राजादिराजाय प्रसय्य साहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ता ज्ञानेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु शान्ति शान्ति शान्ति।